इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। दिल्ली निर्वाचन मतगणना अद्य भविष्यति। दिल्ली विधानसभा निर्वाचनस्य मतगणनायाः सर्वाः सज्जताः पूरिताः सन्ति। मतदानस्य गणना प्रातः 8 वादनतः आरभ्यते। मध्याह्नं 12 वादनपर्यन्तं परिणामः अपेक्षितः वर्तते। प्रथमं डाकमतपत्राणां गणना भविष्यति। तदनन्तरं ईवीएम इत्यत्र गणना भविष्यति। दिल्ली प्रदेशस्य मुख्य निर्वाचनाधिकारी आर एलिस वाज इत्यनेन उक्तं यत् दिल्ली प्रदेशे 11 जनपदेषु गणना प्रक्रियायाः कृते 19 गणना केन्द्राणि स्थापितानि सन्ति। अस्य कृते प्रायः 5,000 कर्मचारिणः, अन्ये च सहायक कर्मचारिणः नियोजिताः, प्रशिक्षिताः च सन्ति। निर्वाचनायोगेन स्वस्य अन्तर्जाल www.eci.gov.in इत्यत्र अथवा अस्य माध्यमेन प्रवृत्तीनां परिणामानां च प्रसारार्थं सुदृढं पूर्णतया सुरक्षितं च आधारभूत संरचनं निर्मितमस्ति। गणनाकेन्द्रेषु 3-स्तरीय सुरक्षाव्यवस्था कृताः सन्ति। आयोगस्य आरक्ष्यधिकारिणां च नित्य निरीक्षणे सशक्त कक्षेषु ईवीएम मतदानयन्त्राणि अपि स्थापितानि सन्ति। प्रशासनेन स्किल इंडिया कार्यक्रमस्य कृते 23,000-तः 26,000-पर्यन्तं 800-8,000 कोटिरूप्यकाणि सर्वकारेण अनुमोदितानि। ह्यः नवदिल्ल्यां वार्ताहरान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् सम्प्रति प्रशासनं कौशल विकासे केन्द्रितमस्ति। अभिसरणस्य गुणवत्ता प्रवर्धनस्य च विषये बलं प्रदीयते। मुम्बईनगरे ह्यः 34 महिलाभिः सह 7 बांग्लादेशीयाः नागरिकाः निगडिताः। आरक्षिबलानुसारं ते प्रायः 5 वर्षेभ्यः चेम्बूरनगरस्य माहुलक्षेत्रे निवसन्तः आसन्। जम्मूकश्मीरस्य डोडामण्डलप्रशासनम् अद्य 25,000-तमवर्षस्य लालद्रमन् इति शीतकालीनमहोत्सवस्य आयोजनं करिष्यति। अस्य कार्यक्रमस्य आयोजनं मण्डलप्रशासनेन पर्यटनविभागस्य, सेनायाः, तेजस एक पहल फाउण्डेशन इत्यस्य च सहयोगेन क्रियते। महोत्सवस्य आरम्भः राष्ट्रगानेन समं भविष्यति। तदनन्तरं सांस्कृतिक प्रदर्शनानां श्रृंखला भविष्यति। आयोजनस्यास्य जीवन्ततां वर्धयितुं राष्ट्रियध्वजेन सह पथ प्रदर्शनम् अपि भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे फ्रांसदेशस्य 3-दिवसीय यात्रायै प्रस्थास्यति। अस्मिन् यात्रावधौ श्रीमोदी पेरिस नगरे फ्रांसदेशस्य राष्ट्रपतिना इमैनुअल मैक्रों इत्यनेन सह आर्टिफिशियल इंटेलिजेंस शिखर सम्मेलनस्य सह अध्यक्षतां विधास्यति। विदेश सचिवः विक्रम मिश्री ह्यः नवदिल्ल्यां एतां सूचनां प्रदत्तवान्। सः अवदत् यत् प्रधानमन्त्री अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन सह द्विपक्षीय उपवेशनम् अपि अस्मिन् मासे 12-13 दिनांकेषु अमेरिकायां करिष्यति। टेनिस क्रीडायां माया राजेश्वरन इत्येषा मुम्बईनगरे एलएनटी मुम्बई ओपन क्रीडायाः महिला एकल क्रीडायां उपान्त्यचक्रे प्रविष्टवती। इति वार्ताः।